श्री नरसिंह कवचस्तोत्रम्। नरसिंह कवचम् वक्षे प्रह्लादिनोदितं पुरा सर्वरक्षकरं पुण्यं सर्वोपद्रावनाशनम् सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकं ध्यात्वा नरसिंहं देवेशं हेमसिंहासनस्थितमः विवृतस्यं त्रिनयनम् शरदिन्दु समप्रभम् लक्ष्म्यालिङ्गित वामाङ्गम् विभूतिभिरुपाशितम् चतुर्भुजं कोमलाङ्गम् स्वर्ण कुण्डलशोभितं सरोजशोभितोरक्षं रत्नकेयूरमुद्रितं तप्तकाञ्चनसङ्कर्षं पीतमालवससनम् इन्द्रादिसूरमौलिष्टः स्फुरन्मणिक्यदीप्तिभिः विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः गरुत्मत च विनयत् स्तूयमनं मुदन्वितम् स्वहृत्कमलां वसनं कृत्वा तु कवचं पथेत् नरसिंह मे शिरः पातु लोकरक्षार्थसंभवः सर्वगोपीस्तम्भवसः फलं मे रक्षतु ध्वनिं नरसिंहो मे दृशो पातु सोमसूर्यग्निलोचनः स्मृतं मे पतु नरीहरि मुनिवार्यः स्तुतिप्रियः नासं मे सिंहनाशस्तु मुखं लक्ष्मीमुखप्रियः सर्वविद्याधिपः पतु नरसिंहो रसनं मम वक्त्रं पत्विन्दुवदनं सदा प्रह्लादवन्दितः नरसिंह पतु मे कण्ठं स्कन्दो भूभृदनन्तकृत् दिव्यस्त्रशोभितभुजः नरसिंह पतु मे भुजः करोमि देववरदो नरसिंहापतु सर्वतः हृदयं योगी सद्यश्च निवासं पतु मे हरि मद्यं पतु हिरण्याक्ष वक्षकुक्षिविदरनः नाभिं मे पतु नरिहरिः स्वनाभि ब्रह्मा संस्तुनः ब्रह्माण्डकोतयः कथ्यं यस्य सौ पतु मे कतिं गुह्यं मे पतु गुह्यानं मन्त्रानं गुह्यरूपद्रेक् उरु मनोभवः पतु जनुनि नररूपद्रेक् जाङ्गे पतु धर धर हर्तयो सौनृकेशरी सुरराज प्रदापतु पदौ मे नरी हरीश्वरे सह शशीर्ष पुरुषः पतु मे सर्वशस्तनु महो ग्रह पूर्वतः पतु महावीराग्रजोऽग्नितः महाविष्णुर्दक्षिणे तु महाज्वलस्तु नैरीतः पश्चिमे पतु सर्वेषो दिशि मे सर्वतामुखः नरसिंह पतु वायव्यं सौम्यं भूषणं विग्रहः ईशान्यं पतु भद्रो मे सर्वमङ्गलदायक संसारभयत पतु मृत्युर्मृत्युर्निकेशरी इदं नरसिंह कवचं प्रह्लादमुखमण्डितं भक्तिमान्य पते नैत्यं सर्वपापै प्रमोच्यते पुत्रवान् धनवान् लोके दीर्घायुरुपजायते कामयते यं यं कामम् तं तं प्राप्नोत्य संशय सर्वत्र जयम् आप्नोति सर्वत्र विजयी भवेत् भूमियन्तरिक्षदिव्यं ग्रहणं विनिवारणम् श्रीनरसिंह कवचस्तोत्रम् सर्वपापै प्रमुच्यते भक्तिमान्यापथि नैत्यं प्रह्लादमुखमण्डितम्।